प्रथमः स्कन्धः अथ सप्तदशोऽध्यायः महाराज परीक्षित द्वारा कलयुग का दमन। श्रुत उवाच तत्र गोमिथुनम् राजा हन्यमानमनाथवत् दण्डहस्तम् च वृषलम् ददृशे निकलाञ्छनम् वृषम् मृडालधवलम् विहन्तमिव बिभ्यतम् वेपमानम् पदैकेन सिदन्तम् शूद्रताडितम् गाम च धर्मदुघाम दीनाम वृषम शूद्रपदाहताम विवत्सम शाश्रुवदनाम क्षामाम जवसमिच्छति पप्रच्छ रथमारूढ़ कार्त स्वर परिच्छदम मेघ गंभीरया वाचा समारोपित कार्मुकः कस्त्वं मच्छरणे लोके बलाधन सबलान बलि नरदेवोऽसि वेषेण नटवत् कर्मणा द्विजः यस्त्वं कृष्णे गते दूरं सह गाण्डीव धन्वना शुच्योऽस्य शुच्यान् रहसि प्राह प्रहरन् बधमर्हसि त्वं वा मृडालधवल पादैर्न्यूनः पदाचरन् वृषरूपेण किं कश्चिद्देवो नः परिखेदयन् न जातु पौरवेन्द्राणां दुर्दण्ड परिरम्भिते भूतले नूपतं तस्मिन् विनाते प्राणिनां शुचः मा सौरभेयानुशुचो व्यतु ते वृषलाद्भयम् मा रोदिरम्ब भद्रम् ते खलानाम् मयि शास्तरी यस्य राष्ट्रे प्रजाः सर्वा त्वस्यन्ते साव्यसाधुभिः तस्य मत्तस्य नश्यन्ति कीर्तिरायुर्भगो गतिः एष राज्ञाम् परो धर्मो यार्तानामार्तिनिग्रह अत एनम् वधिष्यामि भूतद्रुहमसत्तमम् को वृश्चत्तौपादंस्त्रीन् सौरभेय चतुष्पद मा भुवंस्त्वादृशा राष्ट्रे राज्ञाम् कृष्णानुवर्तिनाम् आख्या हि वृषभद्रम् वः साधूनाम् कृतागसाम् आत्मवैरूप्यकर्तारम् पार्थानाम् कीर्तिदूषणम् जनेनागस्य घञ्जुञ्जन् सर्वतस्य च मद्भयम् साधूनाम् भद्रमेव स्याद् असाधुदमने कृते अनागस्विह भूतेषु ययागस्किं निरङ्कुशः आहर्तास्मि भुजम् साक्षादमर्तस्यापि साङ्गदम् राज्ञो हि परमो धर्मः स्वधर्मस्थानुपालनम् शासतोऽन्यान् यथा शास्त्रम् अनापदुत्पथानिह धर्म उवाच एतद्वः पाण्डवेयानाम् युक्तमार्ताभयम् वचः येषाम् गुणगणैः कृष्णो दौत्याद्यौ भगवान् कृतः न वयम् क्लेशबीजानि जतः शिवपुरुषर्षभ पुरुषम् तम् विजानीम वाक्यभेदविमोहितः केचिद् विकल्पवशना आहुरात्मानमात्मनः दैवमन्ये परे कर्म स्वभावमपरे प्रभुम् अप्रतर्क्याद् निर्देश्याद् इति केष्वपि निश्चयः अत्रानुरूपम् राजर्षे विमृश स्वमनीषया सूत उवाच एवम् धर्मे प्रवदति सम्राट् द्विजसत्तमः समाहितेन मनसा विखेदः पर्यचष्टतम् राजोवाच धर्मम् ब्रवीषि धर्मज्ञ धर्मोऽसि वृषरूपधृग् जदधर्मकृतस्थानम् सूचकस्यापि तद्भवेत् अथवा देवमायाया नूनम् गतिरगोचरा चेतसो वजसश्चापि भूतानामिति निश्चयः तपः शौचम् दया सत्यमिति पादाः कृते कृतः अधर्मांसैस्त्रयो भग्नाः स्मय सङ्गमदैस्तव इदानीम् धर्मपादस्ते सत्यम् निर्वर्तेज्जतः तम् जिघृक्षत्यधर्मोऽयम् अनिर्ते नैधितः कलिः इयम् च भूर्भगवता न्यासितोरुभरासति श्रीमद्भिस्तत्पदन्यासैः सर्वतः कृतकौतुका शोचत् अश्रुकला साध्वी दुर्भगे वुज्झिताधुना अब्रह्मण्या नृपव्याजा शूद्रा भोक्ष्यन्ति मामिति इति धर्मम् महिम् चैव सान्त्वित्वा महारथः निशातमाददे खड्गम् कलये धर्महेतवे तम् जिघांसुमभिप्रेत्य विहाय नृपलाञ्छनम् तत्पादमूलम् शिरसा समगाद्भयविह्वलः पतितम् पादयोर्वीरः कृपया दीनवत्सलः शरण्यो नावधिच्छ्लोक्य आह चेदम् हसन्निव नते गुड़ा केश यशोधराणाम् बद्धांजलिर्वै भयमस्ति किंचित् न वर्तितव्यम् भवता त्वाम् वर्तमानम् नरदेव देहे स्वनु प्रवृत्तो यम धर्मपूगः लोभो नृतम् चौर्जमनार्ज मंहो ज्येष्ठा च माया कलहश्च दम्भः न वर्तितव्यम् तद्धर्मबन्धो धर्मेण सत्येन च वर्तितव्ये ब्रह्मा वर्ते यत्र यजन्ति यज्ञेर्यज्ञेश्वरम् यज्ञवितान् विज्ञः यस्मिन् हरिर्भगवान् इज्यमान इज्या मूर्तिर्यजताम् शन्तनोति कामानमोघान् स्थिरजङ्गमानाम् अन्तर्बहिर्वायुरिवैषयात्मा श्रीसुत उवाच परीक्षितैवमादिष्टः स कलिर्जातवेपथुः तमुद्यतासि माहेदम् दण्डपाणिमिवोद्यतम् कलिर्वाच यत्र क्वचन वत्स्यामि सार्वभौमतवाज्ञया लक्षये तत्र तत्रापि त्वामाते सुसरासनम् तन्मे धर्मभृताम् श्रेष्ठ स्थानम् निर्देष्टुमर्हसि यत्रैव नियतो वत्स्य आतिष्ठन्तेन शासनम् श्रुत उवाच अभ्यर्थितस्तदा तस्मै स्थानानि कलये ददौ द्यूतम् पानम् स्त्रियः सूना यत्रा धर्मश्चतुर्विधः पुनश्च याचमानाय जातरूपमदात् प्रभु ततो नृतम् मदम् कामम् रजो वैरम् च पञ्चमम् अमूनि पञ्च स्थानानि यधर्मपर्ववः कलिः औत्तरेयेण दत्तानि न्यवसत्तन्निदेशकृत् अथैतानि न सेवेत बुभूषुः पुरुषः क्वचित् विशेषतो धर्मशीलो राजा लोकपतिर्गुरुः वृषस्य नष्टान् स्त्रीन् पादान् तपः शौचम् दयामिति प्रतिसन्दध आश्वास्य महिम् च समवर्धयत् सर्ह्यध्यास्त आसनम् पार्थिवोचितम् पितामहेनोपन्यस्तम् राज्ञारण्यम् विवीक्षता आस्ते धुना स राजर्षि कौरवेन्द्र श्रीयोल्लसन् गजाह्वये महाभागश्चक्रवर्ती बृहच्छ्रवः इत्थम् भूतानुभावोऽयम् अभिमन्युसुतो नृपः यस्य पालयतः क्षोणीम् जुयम् सत्राय दीक्षितः इति श्रीमद्भागवते महापुराणे परमहंस्याम् संहितायाम् प्रथमस्कन्धे कलिनिग्रहो नाम सप्तदशोऽध्यायः।